ओम नमो भगवते वासुदेवाय। अथ द्वितीयोऽध्यायः। विदुर उवाच, भवे शीलवतां श्रेष्ठे दक्षो दुहि त्रिवत्सलः विद्वेषमकरोत् कस्मादनादृत्यात्मजां सतीं कस्तं चराचरगुरुं निर्वैरं शान्तविग्रहम् आत्मारामं कथं द्वेष्टि जगतो दैवतं महत्। एतदाख्याहि मे ब्रह्मन् जामातुः श्वशुरस्य च। विद्वेषस्तु यतः प्राणांस्तत्यजे दुस्तजां सति। मैत्रेय उवाच, पुरा विश्वसृजां सत्रे समेताः परमर्षयः तथा मरगणा सर्वे सानुगामुनयोग्नयः। तत्र प्रविष्टम् ऋषयो दृष्ट्वार्कमिव रोचिषा भ्राजमानम् वितिमिरम् कुर्वन्तम् तन्महत्सदः। उदतिष्ठन् सदस्यास्ते स्वधिष्ण्येभ्यः सहाग्नयः ऋते विरिञ्चम् सर्वम् च तद्भासा क्षिप्तचेतसः। सदसस्पतिभिर्दक्षो भगवान् साधु सत्कृतः अजम् लोकगुरुम् नत्वा निषसाद तदाज्ञया। प्राङ्निषण्णम् मृडम् दृष्ट्वा नामृष्यत्तदनादृतः। उवाच, वामम् चक्षुर्भ्यामभिवीक्ष्य दहन्निव श्रूयताम् ब्रह्मर्षयो मे सह देवा सहाग्नयः। साधूनाम् ब्रुवतो वृत्तम् नाज्ञानान्न च मत्सरात्। अयम् तु लोकपालानाम् यशोग्नो निरपत्रपः सद्भिराचरितपन्था येन स्तब्धेन दूषितः। एष मे शिष्यताम् प्राप्तो यन्मे दुहितुरग्रहीत्। पाणिम् विप्राग्निमुखतः सावित्र्या इव साधुवत् गृहीत्वा मृगशावाक्ष्याः पाणिम् मर्कटलोचनः। प्रत्युत्थानाभिवादार्हे वाचाप्यकृतनोचितम् लुप्तक्रियाया शुचये मानिने भिन्नसेतवे अनिच्छन्नप्यदाम् बालाम् शूद्रा एवो सतीम् गिरम् प्रेतावासेषु घोरेषु प्रेतैर्भूतगणैर्वृतः। अटत्युन्मत्तवन्नग्नो युप्तकेशो हसन् रुदन् चिताभस्मकृतस्नानः प्रेतस्रङ्ग्रस्तिभूषणः। शिवापदेशो यशिवो मत्तो मत्तजनप्रियः पतिप्रमथभूतानाम् तमो मात्रात्मकात्मनाम्। तस्मा उन्मादनाथाय नष्टशौचाय दुहृदे दत्तावतमया साध्वी चोदिते परमेष्ठिना। मैत्रेय उवाच, विनिन्द्यैवम् स गिरिशमप्रतीपमवस्थितम् दक्षोथाप उपस्पृश्य क्रुद्धः शप्तुम् प्रचक्रमे। अयम् तु देवयजन इन्द्रोपेन्द्रादिभिर्भवः सह भागम् न लभताम् देवैर्देवगणाधमः। निषिध्यमानः स सदस्य मुख्यैर्दक्षो गिरिद्राय विसृज्य सापम् तस्माद् विनिष्क्रम्य विवृद्धमन्युर्जगाम कौरव्य निजम् निकेतनम्। विज्ञाय शापम् गिरिशानुगाग्रणीर्नन्दीश्वरो रोषकषाय दूषितः। दक्षाय शापम् विससर्ज दारुणम् ये चान्वमोदन् सदवाच्यताम् द्विजाः। य एतन्मर्त्यमुद्दिश्य भगवत्य प्रतिद्रुहि द्रुह्यत्यज्ञः पृथक् दृष्टिस्तत्त्वतो विमुखो भवेत्। गृहेषु कूटधर्मेषु सक्तो ग्राम्यसुखेच्छया कर्मतन्त्रम् वितनुते वेदवादविपन्नधीः। बुद्ध्या पराभिध्यायिन्या विस्मृतात्मगतिः पशुः स्त्रीकामसोऽस्त्वतितराम् दक्षोऽवस्तमुखोचिरात्। विद्या बुद्धिरविद्यायाम् कर्ममय्यामसौ जडः संसरन्त्विह ये चामु मनुसर्वावमानिनम्। गिरश्रुतायाः पुष्पिण्या मधुगन्धेन भूरिणा मथना चोन्मथितात्मानः संमुह्यन्तु हरद्विषः। सर्वभक्षा द्विजावृत्यै धृतविद्या तपोव्रताः वित्तदेहेन्द्रिया रामा याचका विचरन्त्विह। तस्यैवम् ददतः शापम् श्रुत्वा द्विजकुलाय वै भृगु प्रत्यसृजच्छापम् ब्रह्मदण्डम् दुरत्ययम्। भवव्रतधरा ये च यजतान् समनुव्रताः पाखण्डिनस्ते भवन्तु सच्छास्त्रपरिपन्थिनः। नष्टशौचा मूढधियो जटा भस्मास्थिधारिणः। विशन्तु शिवदीक्षायाम् यत्र दैवम् सुरासवम् ब्रह्म च ब्राह्मणांश्चैव यद्यूयम् परिनिन्दथ। सेतुम् विधारणम् पुंसा मतः पाखण्डमाश्रिताः। एष एव हि लोकानाम् शिवपन्थः सनातनः। यम् पूर्वे चानुसन्तस्थुर्यत्प्रमाणम् जनार्दनः तद्ब्रह्म परमम् शुद्धम् सताम् वर्त्म सनातनम्। विगर्य यात पाषण्डम् दैवम् वो यत्र भूतराट्। मैत्रेय उवाच, तस्यैवम् वदतः शापम् भृगो स भगवान् भवः निश्चक्रामततः किञ्चिद्विमना इव सानुगः। तेऽपि विश्वसृजः सत्रम् सहस्रपरिवत्सरान् संविधाय महेश्वास यत्रेज्य ऋषभो हरिः। आप्लुत्यावभृतम् यत्र गङ्गायमुनयान्विता विरजेनात्मना सर्वे स्वम् स्वम् धाम ययुस्ततः। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थस्कन्धे दक्षशापो नाम द्वितीयोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।